इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। प्रधानमन्त्री नरेन्द्र मोदी ह्यः नवदिल्ल्यां सर्वोच्च न्यायालये विधि सहायता वितरण तन्त्रस्य सुदृढीकरण विषये राष्ट्रिय सम्मेलनम् उद्घाटितवान्। सः नालसा इत्यस्य सामुदायिक मध्यस्थता प्रशिक्षण मॉड्यूल इत्यस्यापि उद्घाटनं कृतवान्। तेनोक्तं यत् सामाजिक न्यायः तदा एव सम्भवः यदा सर्वेभ्यः न्यायः प्राप्यते तथा च विधि अभिलेखाः स्थानीय भाषासु उपलभ्यन्ते।
आज लोक अदालतों और प्री लिटिगेशन सेटलमेंट के माध्यम से लाखों विवाद जल्दी सौहार्दपूर्ण और कम खर्च में सुलझाए जा रहे हैं। भारत सरकार द्वारा शुरू किए गए लीगल एड डिफेंस काउंसिल सिस्टम के तहत केवल 3 साल में लगभग 8 लाख क्रिमिनल केसेस का निपटारा किया गया है।
बिहार विधानसभा निर्वाचनस्य द्वितीय चरणस्य प्रचारः ह्यः प्रचारस्य अन्तिमे दिने तीव्रम् आसीत्। अस्मिन् चरणे मंगलवासरे 20 मण्डलेषु 22,100 मतदानं भविष्यति। एनडीए महागठबंधन अन्य च दलानां वरिष्ठनेतारः ह्यः सम्पूर्णे राज्ये जनसभां सार्वजनिक सभां च आयोजयित्वा स्वप्रत्याशिनां कृते समर्थनं प्राप्तुं अन्तिम प्रयत्नं कृतवन्तः। उत्तराखण्ड राज्यस्य स्थापनायाः रजत महोत्सवस्य कार्यक्रमे भागग्रहणाय प्रधानमन्त्री अद्य देहरादून नगरं गमिष्यति। सः अवसरेऽस्मिन् स्मारक प्रैष्य चिटिकायाः विमोचनं करिष्यति, सभां च सम्बोधयिष्यति। श्रीमोदी 8,000 कोटिरूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनमपि करिष्यति। राष्ट्रपतिः द्रौपदी मुर्मू अंगोला बोत्स्वाना देशयोः राजकीय यात्रायां वर्तते। सा गतरात्रौ अंगोलादेशं प्राप्तवती। एषा यात्रा एतौ अफ्रीकादेशौ प्रति कस्यापि भारतीय राष्ट्रप्रमुखस्य प्रथमा यात्रास्ति। नवम्बर मासस्य 13 दिनांकपर्यन्तं प्रवर्तमानायाम् अस्याम् यात्रायां सा स्वीय यात्रायाः प्रथमे चरणे अंगोलादेशस्य राष्ट्रपतिना जो आओ लोरेंको इत्यनेन सह द्वैपाक्षिकं वार्तालापं करिष्यति। सा अंगोलादेशस्य संसदं सम्बोधयिष्यति तथा च अंगोलादेशस्य स्वातन्त्र्यस्य 50वें वार्षिकोत्सवे भागं ग्रहीष्यति। अस्य मासस्य 11-13 दिनांकपर्यन्तं यात्रायाः द्वितीये चरणे राष्ट्रपतिः बोत्स्वाना देशे भविष्यति। राष्ट्रिय हरित न्यायाधिकरणेन एनजीटी इत्यनेन केन्द्रीय प्रदूषण नियन्त्रण मण्डलं सीपीसीबी इत्यमुम् उत्तर प्रदेश दिल्ली हरियाणा बिहार राज्य प्रदूषण नियन्त्रकेभ्यः गंगा यमुना इत्यादिषु महत्वपूर्ण जलाशयेषु अनुपचारित अपशिष्टानां निर्गमनस्य आरोपिनां 17,000-तोप्यधिकानां स्थूल प्रदूषण उद्योगानां जीपीआई इत्येतेषां विरुद्धं शीघ्रं कार्याचरणाय निर्देशः प्रदत्तः। डोनाल्ड ट्रम्प इत्येषः दक्षिण अफ्रीका देशे श्वेतवर्णीय जनानां उत्पीडनं प्रचलति इत्यस्मिन् विषये अस्वीकृत प्रस्तावानां कारणात् अमेरिकादेशः G20 शिखर सम्मेलने भागं न भजिष्यति इत्युक्तवान्। अमेरिकादेशस्य राष्ट्रपतिः अवदत् यत् एतत् सम्पूर्णं लज्जास्पदमस्ति यत् दक्षिण अफ्रीका अस्य सम्मेलनस्य आतिथ्यं करोति, यत्र विश्वस्य बृहत्तमानां अर्थव्यवस्थानां नेतारः अस्मिन् मासस्यान्ते जोहान्सवर्गे समागमिष्यन्ति। पंकज आडवाणी इत्येषः ह्यः दोहा नगरे कनाडादेशस्य साहिल नायर इत्यस्य विरुद्धं 4-1 इत्यांकैः विजयं प्राप्य स्वस्य IVSF विश्व स्नूकर चैम्पियनशिप अभियानं आरब्धवान् इति वार्ताः।